इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः रूपलाल शर्मा अथ वार्ताः विस्तरेण प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य 25तमस्य कारगिल विजय दिवसस्य अवसरे कारगिल युद्ध स्मारकस्य भ्रमणं करिष्यति। श्रीमोदी कर्तव्यपालनकाले हुतिंगतानां सैनिकानां कृते श्रद्धांजलिम् अर्पयिष्यति। प्रधानमन्त्रिणा सामाजिक तन्त्र माध्यमेन प्रोक्तं यत् प्रत्येकं भारतीयस्य कृते अयं दिवसः महत्वपूर्णो वर्तते। सः प्रोक्तवान् यत् तेषां सर्वेषां कृते श्रद्धांजलि प्रदानस्य अयं कालः विद्यते ये देशरक्षार्थं स्वीयं बलिदानं दत्तवन्तः। श्रीमोदी सिंकुनला गुहा मार्ग परियोजनायाः प्रथम घट्टस्यापि उद्घाटनं करिष्यति। लेह नगरं प्रति सर्वविधरितौ सम्पर्कं प्रदातुं निमु पदुम दर्चा मार्गे प्रायश गुहा निर्मिता भविष्यति। अद्य संसदः उभयोः सदनयोः वित्त संकल्पना पत्रस्य विषये पुनः चर्चा भविष्यति। कांग्रेसस्य चन्नी महोदयः आरोपितवान् यत् वित्त संकल्पना पत्रेण जनाः निराशीकृताः। पंजाबवासिनां कृते तत्र किमपि नास्ति। यः सर्वकारम् उद्दिश्य इदमपि सः प्रावोचत् यत् मनरेगान्तर्गत दीयमानं पारिश्रमिकं किमर्थं न वर्धापितम्। भाजपेति दलस्य वैजयन्ती पाण्डा अवदत् यत् केन्द्रीय वित्त संकल्पना पत्रम् ऐतिहासिकं विद्यते अथ च व्यापक विकासार्थं इदं वर्तते। राज्यसभायां कांग्रेसस्य रणदीप सुरजेवालः कृषक अवृत्तिक निर्धन जनसम्बद्ध विषयं प्रकाशयत्। सः अवदत् यत् कृषकाणां ऋण क्षमार्थम् अत्र किं क्षमार्थम् अत्र किमर्थम् उपायः न कृतः। भाजपा सांसदः मेधा कुलकर्णी वित्त संकल्पना पत्रस्य प्रशंसाम् अकरोत् यत् वित्तमन्त्रिणा महाराष्ट्रस्य कृते पर्याप्त प्रावधानं कृतं वर्तते। विदेशमन्त्री डॉ एस जयशंकरः प्रोक्तवान् यत् एशियायाः बहुध्रुवीय वैश्विक सम्भावनार्थं भारत चीन सम्बन्धेष् स्थैर्यम् आवश्यकं वर्तते। विदेशमन्त्री डॉ एस जयशंकरः आसियान संघटनस्य विदेशमन्त्रिणां सभासु भागं ग्रहीतुं त्रिदिनानां भ्रमणार्थं लाओस देशस्य बियेंटान नगरं गतवान् अस्ति। डॉ जयशंकरः सामाजिक तन्त्र माध्यमेन सूचनां दत्तवान् यत् भारतस्य एक्ट ईस्ट नीतेः दशकस्य अवसरे आसियान संघटनेन सह भारतस्य अधिकं सम्बन्धं च दृढीकर्तुं सः उत्सुकः वर्तते। इजराइल देशस्य प्रधानमन्त्री बेंजामिन नेतन्याहू अमेरिकीय संसदं सम्बोधितवान्। फिलिस्तीन क्षेत्रे नवमासाधिकं यावत् संघर्षस्य अनन्तरं अन्ताराष्ट्रिय आलोचनानां मध्ये स स्वभाषणे अमेरिकीय समर्थनस्य विशेषतः चर्चां कृतवान्। नेतन्याहू उक्तवान् यत् इजराइल बन्धकान् मुक्तान् कर्तुं तथा च तान् सुरक्षितान् आनेतुं सक्रियरूपेण कार्यं तत्र स्यात्। गुजरात महाराष्ट्र कोंकण गोवास् अजस्रं वृष्टिकारणात् जनजीवनं कुप्रभावितं वर्तते। ऋतु विभागेन उक्तमस्ति यत् कोंकण गोवा मध्य महाराष्ट्रस्य च कतिपय भागेष् तीव्र वर्षाया संभावना अस्ति। विभागेनेदमपि उक्तं यत् सौराष्ट्र कच्छ विदर्भ मराठवाड़ा इत्यादिषु क्षेत्रेषु अपि उत्कट वर्षाया संभावना विद्यते। मध्यप्रदेशे वर्षा भविष्यन्ति। महाराष्ट्रे तीव्र वर्षाकारणात् पुणे नगरस्य जनपद नागर मार्गाः प्रभाविताः सन्ति। पेरिस ओलंपिक 2024 इत्यस्य आधिकारिक प्रारम्भो अद्य भविष्यति। भारतीय पुरुष महिला सरसन्धान क्रीडा दले मुख्य कार्यक्रमस्य उपान्त्यचक्रं तत्र प्राविशताम् इति वार्ताः।